अहम् करोतु कल्याणम् आरोग्यम् ज्ञानवैभवम् आत्मीयस्नेहवृद्ध्यर्थम् तं मूलकुं प्रणमामि।